ॐ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परब्रह्मा तस्मै श्रीगुरवे नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ। नमस्ते महोदय, पठामि। अत्र रथोपस्थ इति प्रसङ्गे एवम् उक्त्वार्जुनः रथोपस्थ उपाविशत् कथा पृष्ठसङ्ख्या द्वादश पुटम् इति अस्ति। गीताप्रवेशः प्रथमभागः इति तत्र द्वादशे पुटे किम् अस्ति इत्युक्ते कथा अस्ति तत्र। अस्तु, कथा अस्ति स्वरसन्धिः इति, तस्य उल्लेखनस्य विषये दत्तमस्ति इदानीं। तत्र यत् उल्लेखितमस्ति तस्य विषये, रथस्य उपस्थः इति रथोपस्थः इति षष्टितत्पुरुषसमासः इति भवति। उपस्थ इत्यस्य अर्थाः दत्ताः सन्ति तत्र, यथा उपस्था इत्युक्ते मिडल् आर् इन्नर् पार्ट् आफ् एनिथिङ्ग्, रथोपस्था इत्युक्ते तत्र पुंलिङ्गे, उपस्था इति पदं पुंलिङ्गे, रथोपस्था इति पदं पुंलिङ्गे, ड्रैविङ्ग् बाक्स् इति भवति यतोहि रथः इति पुंलिङ्गपदं। रथोपस्था अन्याः अर्थाः हैण्डर् पार्ट् आफ् ए कार् अथवा सीट् आफ् ए चारियट् आर् चारियट्स् अथवा वेल् आफ् ए चारियट् इति अर्थेषु इत्येतेषु अर्थेषु अस्ति। अपि च तत्र अस्तु, रथोपस्थ इति उक्त्वा तत्र तावत् विवरणं दत्तमस्ति। अग्रे तु एचोयवायावः इत्यस्य प्रसक्तिः अस्तु। इदानीं सन्धिरहितवाक्यम् अस्ति, एवम् उक्त्वा अर्जुनः रथोपस्थे उपाविशत् इति इत्युक्ते तत्र रथोपस्थे इति तत्र एकारः आगच्छति, तदनन्तरम् अक् वर्णः अस्ति, अच् वर्णः, क्षमताम्, यचो यवायावः इत्यस्य सूत्रस्य प्रक्रियां दर्शनार्थम् एतत् किं तत्र परिचयत्वेन दत्तम्। रथोपस्थे उपाविशत् इति यचो, तदनन्तरं यचो यवायावः इति सूत्रम् एतत् सूत्रं यान्तावान्तादेशसन्धिः इति अपि उच्यते। तेन रथोपस्थे उपाविशत् इत्यस्य रथोपस्थै योगः उपाविशत्, तदनन्तरं लोपः शाकल्यस्य इत्यनेन विकल्पेन यकारलोपः, तदनन्तरं रथोपस्थ इति भवति यकारस्य लोपानन्तरं, योगः उपाविशत्, पूर्वत्र सिद्धम् इत्यनेन गुणसन्धिः बाधितः इति अस्ति। अग्रे अपि अस्ति, तावत् अस्तु, तावत् वदामि। तत्र सन्धिरहितवाक्यम् अस्ति, एवम् उक्त्वा अर्जुनः रथोपस्थे उपाविशत् इति। इदानीं तत्र अन्तिमद्वय पदे स्वीकृत्य रथोपस्थे उपाविशत् इति तत्र सन्धिकार्यं कुर्मः चेत्, रथोपस्थे योगः उपाविशत् इत्युक्ते ए योगः उ इति वर्णयोः सन्धिः, एकारस्य तत्र किं भवति इत्युक्ते अच्वर्णे परे यचो यवायावः इति सूत्रेण एकारस्य ऐ आदेशः भवति, यतोहि तत्र रथोपस्थे इत्यस्य रथोपस्थ योगः ए इत्यत्र ऐ इति भवति, अतः रथोपस्थै इति भवति। तदनन्तरम् उपाविशत् इति अस्ति तत्र। इदानीं तत्र तस्य यकारस्य लोपः शाकल्यस्य इति एकं सूत्रम् अस्ति, तत्र शाकल्यः इति दृष्टवन्तः वैयाकरणः, तेन मतेन विकल्पेन यकारलो इत्युक्ते तेन मतेन यकारलोपः भवितुम् अर्हति अतः तत्र विकल्पेन क्रियते, शकल्येन मतम् इति कृत्वा विकल्पेन क्रियते, तदा रथोपस्थ इति एव यकारः अपगच्छत्, इदानीं रथोपस्थयोगः उपाविशत् इति भवति, तत्र पूर्वत्र सिद्धम् इत्यनेन गुणसन्धिः बाधितः इति. तत्र लोपः शाकल्यस्य इत्यनेन विकल्पेन यकारलोपः भवति, किन्तु तत्र गुणसन्धिः किमर्थं बाधितं भवति चेत् तत्र आद्गुणः इति गुणसन्धिसूत्रं यदा आगच्छति, तत् सूत्रं तत्र यकारं पश्यति, तस्य सूत्रस्य कृते यकारस्य लोपः न दृश्यते, अतः तत्र गुणसन्धिः न भवति. तत्र पूर्वत्र सिद्धम् इति अष्टाध्यायी ग्रन्थं द्विभागे विभज्यम् अस्ति, विभक्तम् अस्ति. तत्र प्रथमाध्यायात् आरभ्य सप्तमाध्यायाध्यायम् अपि च अष्टमाध्यायस्य प्रथमपादं तावत्पर्यन्तं सपाद सप्ताध्यायी इति एकः भागः, तत्र स्वरसन्धिसन्धयः सन्ति, सर्वे हल्सन्धयः. त्रिपादी इत्युक्ते तत्र इदानीम् अष्टाध्याये केवलं तत्र प्रत्येक अध्याये चत्वारि पादानि सन्ति, इदानीं अष्टाध्याये केवलं त्रीणि पादानि त्रीणि पादानि सन्ति, अतः तत्र त्रिपादी इति उच्यते. तर्हि तत्र सपादसप्ताध्यायी अपि च त्रिपादी इति, तत्र लोपः शाकल्यस्य इति सूत्रं तत्र अष्टाध्याये तृतीयपादे नव किं तत्र नवदशतमं सूत्रम्, अतः आद्गुणः कुत्र अस्ति इत्युक्ते तत्र सपादसप्ताध्यायां संख्या पश्यामि महोदय, आद्गुणः
687 भगिनि,
6187. अतः तत्र तस्य सूत्रस्य सपादसप्ताध्यायां यानि सूत्राणि सन्ति तेषां कृते त्रिपादी नास्ति एव, त्रिपादी इति ग्रन्थः एव नास्ति तेषां कृते इति. इत्युक्ते हा तत्र यानि सूत्राणि सन्ति ते सर्वे असिद्धाः एव सपादसप्ताध्यायां यानि सूत्राणि सन्ति तेषां कृते, अतः ते न पश्यन्ति तत्र यत् यकारस्य लोपः अभवत् तं लोपं न पश्यन्ति, अतः तत्र आद्गुणः इति हा तेषां कृते इदानीमपि रथोपस्थै योगः उपाविशत् इति एव दृश्यते, अतः तत्र आद्गुणः कार्यं न करोति, अतः तथा एव तिष्ठति. अतः पूर्वत्र सिद्धम् इत्यनेन गुणसन्धिः बाधितः, तत्र पूर्वसूत्रस्य कृते परसूत्रम् असिद्धम् इति भवति.
अस्तु अस्तु अस्तु, समीचीनं भगिनि, अस्तु अस्तु, उत्तमम्.
इत्युक्ते कुत्र त्रिपाद्यां भवति तादृशं, किन्तु यथा तत्र सपादसप्ताध्याय्यां याः कृते पूर्व तत्र त्रिपादी असिद्धमेव, अतः कार्यं न भवति.
न भवति, अस्तु समीचीनं भगिनि, धन्यवादः, उत्तमं,
धन्यवादः महोदय.
अग्रे तत्र उषा भगिनी अग्रे पठति
महोदय. लोपशाकल्यस्य लोपः शाकल्यस्य अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः भवति अशि परे शाकल्यस्य मतेन. लोपः प्रथमान्तं शाकल्यस्य षष्ट्यन्तं द्विपदमितं सूत्रं. व्यो लघु लघु प्रयत्नतरः शाकटायनस्य इत्यस्मात् व्योः इत्यस्य अनुवृत्तिः. भो भगो अघो अपूर्वस्य यो अशि इत्यस्मात् अपूर्वस्य च अशि इत्यनयोः अनुवृत्तिः. पदस्य संहितायाम् इत्यनयोः अधिकारः शाकल्यस्य इत्युक्ते शाकल्यस्य मतेन नाम इदं विकल्पेन भवति. अनुवृत्तिसहितसूत्रम् अपूर्वयोः पदान्तयोः व्यो वकारयकारयोः व्योः लोपः अशि शाकल्यस्य लोपः शाकल्यस्य इति सूत्रम् अस्ति. शाकल्यस्य मतेन लोपः भवति कः लोपः वकार अथवा यकारलोपः भवति. वकारयकारयोः एतादृशवकारयकारयोः एचो अयवायावः इत्यनेन सूत्रेण तादृशवकारयकारयोः अस्ति अत्र. अपूर्वयोः पदान्तयोः अपूर्वयोः अकारः पूर्वः यकारवकारयोः पूर्व अकारः अस्ति. अनन्तरं यकारः अथवा वकारः अस्ति. पदान्त अन्ते अपि अस्ति. पदान्तयोः वकारयकारयोः पदान्त यः पदान्तयोः वकारयकारयोः यत् कृते अपूर्वः अस्ति पूर्व अकारः अस्ति अनन्तरं यकार अथवा वकारः अस्ति. अनन्तरं पदान्तः अपि अस्ति. पदान्तयकार अथवा वकारः अस्ति. तत् यकारः अथवा वकारः लोपः भवति इति शाकल्यस्य इति वैयाकरणस्य मतम् अस्ति. पाणिनेः मतं तत् नास्ति इत्यनेन विभाषा इत्यनेन विकल्पेन भवति इति. रथोपस्थे उपाविशत् एकारस्य स्थाने वयं दृष्टवन्तः अकारयकारः भवति इति. अकारयकार यतोहि एकारः योगः उकारः अस्ति. एकारस्य स्थाने ऐ आदेशः भवति. अकारयकार आदेशः भवति इत्यनेन थै इति भवति. रथोपस्थै योगः उपाविशत् रथोपस्थै इति यकारः अकारः पूर्वः अस्ति. अनन्तरं पदान्तः अपि पदान्ते अपि अस्ति. तत् यकारः लोपः भवति इति शाकल्यस्य मतम् अस्ति. सो रतोपस्त उपाविशत् इति भवति. अनन्तरं सन्धिकार्यं न कृतं यतोहि पूर्वत्र सिद्धम् इत्यनेन सन्धिकार्यं बाधितं भवति. पूर्वत्र सिद्धमपि भगिनी उक्तवती. सपादशब्दाध्यायीं प्रति त्रिपादी असिद्धा. त्रिपाद्यां प्रति पूर्वं प्रति परं शास्त्रम् असिद्धम् इति. अग्रे अपि पठामि वा महोदय? पूर्वत्र
तत्र लोप प्रथमान्तं तद् किञ्चित्
अस्तु महोदय. लोपः सूत्रे लोपः शाकल्यस्य इति अस्ति. लोपः प्रथमान्तं शाकल्यस्य षष्ट्यन्तं द्विपदमितं सूत्रम् अनुवृत्तिसहितसूत्रम् अस्ति. अपूर्वयोः पदान्तयोः व्योः लोपः अशिशाकल्यस्य इति 8319 दट्ट बट व्यो लघु प्रयत्नतरः शाकटायनस्य इत्यस्मात् वकारयकारयोः इति अस्ति. वकारयकारयोः अनुवृत्ति भवति. भो भगो अगो अपूर्वस्य यो अशि इति प्रसिद्धसूत्रम् अस्ति. विसर्गलोपः सन्ति. तदपि यकारवकारयोः भो भगो अगो अपूर्वस्य यः अशि यकारः अशि दट् सूत्र फ्रम् दैर् अशि इति अनुवृत्ति भवति. अपूर्वस्य अपि च अशि इति अनयोः अनुवृत्ति. अशि इति अपूर्वयोः पदान् अनुवृत्तिसहितसूत्रम् अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः अशिशाकल्यस्य अशि परः अस्ति. उकारः अशि रथोपस्थे उपाविशत् रथोपस्थै योगः उपाविशत् उकारः अशि अस्ति. अशि इति प्रत्याहारः जबैन् गडदश् जबगड अशि हयवरट् लण्डन्
तृतीय पञ्चम
तृतीयचतुर्थपञ्चमस्तरः अपि च आल् द बबल्स्
हयवर
हयवरट् लण् न्यमगणनं झबन् झबन् घटदश्
झबर्विहाय
प्रथमद्वितीयवर्णस्तरः विहाय
विहाय
शससरपि विहाय
अस्तु अस्तु तद् यदि तत्र परं भवति चेत् अश् इदानीम् अस्तु अश् प्रत्याहे परं भवति चेत् तदा लोपः भवति शाकल्यस्य मतेन
पदान्तवकारयकार पदान्तवकारयकार तत् पूर्वम् अकारः अस्ति
भवेत्
परः अशि अस्ति
परः अशि भवेत्
तत् यकारः लोपः भवति वकारः अथवा यकारः
लोपः भवति
अनन्तरं सन्धिकारं न क्रियते अनन्तरं
न क्रियते अत्र ऐ इति अस्ति अतः यकारः अन्ते पदान्ते अस्ति ऐ अस्ति इति कृत्वा अकारः पूर्वमस्ति अतः अपूर्वः अस्ति पदान्तः अस्ति यकारः अस्ति अपि अनन्तरं उ इति
अशि
अशि अशि अस्ति अतः शाकल्यसम्मतम् इति इत्यन्य कार्यं भवति अस्तु धन्यवादः भगिनी अवगतम् उत्तमम् अस्तु अग्रे तत्र निवेदिता भगिनी अग्रे पठति वा
आमां पूर्वत्र सिद्धम् 8-1 सपादसप्ताध्यायी प्रति त्रिपाद्यसिद्धा त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रं सिद्धं पूर्वस्मिन् सोरि सोरि शास्त्रम् असिद्धं शास्त्रम् असिद्धं पूर्वस्मिन् इति पूर्वत्र न सिद्धम् असिद्धं पूर्वत्र अव्ययम् असिद्धं प्रथमान्तं द्विपदम् इदं सूत्रम् अधिकारसूत्रम् अष्टाध्याय्याः अन्तपर्यन्तं प्रवर्तते अनेन सूत्रेण अष्टाध्यायी इति ग्रन्थः भागद्वये विभजितः प्रथम अध्यायस्य आरम्भतः अष्टम अध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः अष्टमध्यायस्य द्वितीयः तृतीयः चतुर्थश्च पादाः मिलित्वा द्वितीयभागः प्रथमभागस्य नाम सपादसप्ताध्यायी द्वितीयभागस्य नाम त्रिपादी त्रयाणां पादानां समाहारः त्रिपादी द्विगुसमासः सप्तानाम् अध्यायानां समाहारः सप्ताध्यायी पादेन सहिता सपादसप्ताध्यायी पूर्वत्र असिद्धम् इति सूत्रमस्ति पूर्वस्मिन् अस्ति इति पूर्वत्र न मतलब न सिद्धम् असिद्धम् पूर्वत्र सिद्धं मध्ये पूर्वत्र इति अव्ययमस्ति असिद्धमिति प्रथमान्तं पदमस्ति अतः एतत् सूत्रं द्विपदम् अस्ति अधिकारसूत्रम् अस्ति अष्टाध्यायी मध्ये द्वे विभागे सन्ति अष्टाध्याय्याः एतत् सूत्रम् अष्टाध्याय्याः अन्तपर्यन्तं प्रवर्तते अष्टाध्यायी मध्ये द्वे विभागाः सन्ति सोरि स्तः द्वे विभागे स्तः प्रथम अध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादपर्यन्तम् एकः भागः अस्ति तथा अष्टमाध्यायस्य द्वितीय तृतीय तथा चतुर्थः भागाः द्वितीये विभागे अस्ति प्रथमभागस्य नाम अस्ति सपादसप्ताध्यायी तथा द्वितीयभागस्य नाम अस्ति त्रिपादी द्विगुसमासः अस्ति द्विपादी नाम सप्तानाम् अध्ययनं समाहार सप्ताध्यायी अस्ति सप्त अध्यायः यः यः मत्लब् एकत्र अस्ति अतः सप्ताध्यायी पादेन सहित
किन्तु पादेन सहिता अस्ति इति कृत्वा सप्ताध्यायी इति समीचीनं हा अपि एतदेव तत्र शोभगिनी अपि उक्तवती किन्तु द्वितीयवारं शृण्मश्चेत् मनसि तिष्ठति अतः समीचीनम् अपि तत्र वार्ताक यथा भगिन्या उक्तं पूर्वं नाम पूर्वत्र असिद्धम् इत्युक्ते एतत् सूत्रं द्वितीयभागस्य प्रथमसूत्रम् अस्ति खलु यतोहि तत्र सङ्ख्या पश्यतु तत्र अष्टमाध्याये द्वितीयपादे प्रथमसूत्रमस्ति
प्रथमसूत्रमस्ति
हा अतः द्वि तत्र त्रिपादी मध्ये ये सूत्राणि सन्ति तेषां कृते एतत् एतस्य प्रायशः अधिकारः भवति इति मन्ये अधिकारसूत्रम् इति कुत्रापि उक्तं खलु एतत् अधिकारसूत्रम् इति
अधिकारसूत्रम्
अन्त्यपर्यन्तं
प्रवर्तते
अतः अधिकारसूत्रम् अपि यथा भगिन्या उक्तं नाम एतत् सूत्रं वदति तत्र किं तत्र लोकद्वयमस्ति एकस्मिन् लोके यत् भवति तत् अन्यस्मिन् लोके तेषां ज्ञानं नास्ति इति खलु सूत्राणि तत्र त्रिपादीमध्ये ये सूत्राणि सन्ति यानि सूत्राणि सन्ति तेषां ज्ञानम् अथवा कार्यं तत्र प्रथमभागे तत्र न भवति इति तादृशं किमपि खलु तत्र
तेषां कार्यं भूत्वा तदनन्तरं तत्र सपादसप्ताध्याय्याः सूत्रम् आगच्छति चेत् तत्र तस्य कार्यं न
भवति
यत् भवनीयं तत् न भवति यथा तत्र रथोपस्थै इत्यत्र यकारः लोपः अभवत् इति तेन परिगणितं नास्ति न भवति अतः तत्र
तत्र प्रथमभागस्य सूत्रं कार्यं करोति तदनन्तरं द्वितीयभागस्य सूत्रं यदि आगच्छति तद् तत्र
महोदय पदान्त इस् नीडेड् फार् अष्टाध्यायी त्रिपादीसूत्रं त्रिपादीसूत्र नीच्त पदान्त अर्ध पद लैक् विरस्त सपादशब्दाध्यायी इस् द वन् वेर् इट् क्रियेट्स् द पद सो आफ्टर् द पद इस् क्रियेटेड् ओन्ली त्रिपादी सपादशब्दाध्यायी सूत्राः कार्यमेव प्रथमं भवति अनन्तरमेव पदान्त अस्ति चेत् एव त्रिपादीसूत्रं प्रसक्तिः भवति
तथा अस्ति वा
आम् पदान्त नीडेड् रैट् लोपशाकल्यस्य
सर्वेषां कृते नास्ति खलु
न न फस्ट् वि डू आल् द अङ्गकार्यं रैट्
सत्यं किन्तु
अङ्गकार्यं गोस्
अहं चिन्तितवती भवती वदति तत्र त्रिपाद्यां यानि सूत्राणि सन्ति तेषां कृते इति अस्तु
त्रिपादीसूत्रा सर् आल् लैक् पदान्ता रैट् मोस्ट्लि
हल् सन्धयः हल्सन्धि
अपि च अदर् सूत्रस्य
किन्तु सपादाष्टाध्यायी मध्ये ये सूत्राणि सन्ति तेषां कार्यं प्रथमतया भवति तदनन्तरं त्रिपादीसूत्राणां कार्यं भवति इति
अच् सन्धेः कृते सपादसप्ताध्यायाम् इति मम स्मरणे अस्ति महोदय सन्धेः कृते त्रिपाद्यां तत्र आरभ्य इति 8.2 इति आरभ्य
इति
मम अवगमनम्
सपादसप्ताध्यायीं प्रति त्रिपादी कार्यम् असिद्धा
असिद्धं
त्रिपाद्यां प्रति पूर्वं प्रति परं शास्त्रम् असिद्धं द त्रिपादि कार्यास् गोस् इन् आर्डर् महोदय इन् सक्सेशन् वेर् सपादशब्दाध्यायी सूत्रास् केन् डू द परसूत्रं टेक्स् ओवर्
Okay.
That too, the sutranam balabalam krite purva para
etateva etateva tatra agre antima bhagah tatra asmin prasange itopi suchana avashyaki chet asmin karapatre tatra sutranam balam
balabalam
balabalam chintanam tad tasya api vishe tasmin vishe api karapatram asti atra prayasya idanim mastu
पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति अस्ति
भगिनि किन्तु हल् सन्देहे तत्र अग्रे तत्र करपत्रं पठामः तदनन्तरं प्रायशः तत्र एतत् पठितुं शक्नुमः इति मन्ये तर्हि बहु समीचीनं धन्यवादः भगिनि अस्तु तर्हि अतः इदानीं तत्र अहं अस्तु बहु समीचीनमस्ति स्वरसन्धिः करपत्रं किञ्चित् न्यूनातिन्यूनं किञ्चित् अवगमनम् अभवत् इति सूत्राणां प्रयोगः कथं भवति इति तर्हि इदानीम् अग्रे तत्र हल् सन्धिविषये वयं तत्र पठितवन्तः खलु तत्र तर्हि प्रायशः तत् कुर्मः तत्र प्रथमतया तत्र श्चुत्वसन्धि इति अस्ति तर्हि तत्र अपि स्वरूपमहोदयस्य करपत्रमपि अस्ति तर्हि तत्र श्चुत्वसन्धि वयं किञ्चित् कृतवन्तः इति मन्ये खलु श्चुत्वसन्धि अथवा न कृतवन्तः गीताप्रवेशे अस्तु न जानामि अस्तु शेते इति प्रायश कृतवन्तः इति मन्ये शक्तिः अस्तु तर्हि तत्र अग्रे तत्र हल् सन्धिकरपत्रम् अस्ति तस्य लिङ्क् प्रेषित अपि तत्र ईमेल् मध्ये अस्ति तत्र आरम्भं कुर्मः एव तत्र श्चुत्वसन्धिः इति प्रथमतया भवति तर्हि तत्र सुजाता भगिनि इदानीं तत्र श्चुत्वसन्धि इति आरभ्य हल् सन्धि करपत्रं
सूत्रेषु विभक्ति अर्धः तदपि पठनीयम्
एकवारं पठतु
सूत्रेषु विभक्ति अर्धः षष्टिविभक्तिस्थाने सप्तमी विभक्तिः पूर्वकार्यं पञ्चमी विभक्ति परकार्यं प्रथमा विभक्ति आदेशः आगमः नामकरणं तृतीया विभक्ति संयोजनम्
इति तत्र वयं जानीमः नाम षष्टिविभक्ति तस्य स्थाने सप्तमीविभक्ति अस्ति चेत् पूर्वकार्यं पूर्वं भवति एतत् अनन्तरं भवति पञ्चमीविभक्ति भवति चेत् परकार्यं कार्यं परमस्ति अतः पञ्चमीविभक्तिपदम् इत्युक्ते पञ्चमीविभक्ति इत्युक्ते तद् कार्यात् पूर्वं भवति प्रथमविभक्ति इत्युक्ते न परकार्यम् इत्युक्ते कार्यं परं भवति भवति एतस्य अनन्तरं कार्यं भवति चेत् तदा परकार्यम् इति वदामः एतस्मात् पूर्वं कार्यं भवति चेत् पूर्वकार्यम् इति वदामः तदनन्तरम् आदेशः तस्य आदेशः नूतन अस्ति चेत् तत्र अपि नामकरणं तृतीयविभक्ति संयोजनम् इति प्रायशः तस्य विवरणम् अग्रे चर्चयामः यतोहि तदेव प्रथमे सूत्रे भवति अतः प्रथमसूत्रम् इदानीं श्रुत्वसन्धिविषये पठतु तर्हि
श्रुत्वसन्धिः स्तोः चुनाचुः अष्टमाध्याये चतुर्थपादे 40 अस्ति. सकारस्य तवर्गस्य च स्थाने चकारस्य चवर्गस्य च आदेशः भवति. चकारस्य चवर्गस्य च योजनेन यदा सङ्ख्यमनुदेशः समानम् इति परिभाषासूत्रेण उद्देशिनाम् अनुदेशिनां च यदा क्रमम् उद्देश्यभिः अनुदेशिनः सम्बध्यन्ते सा च सम्बध्यन्ते सा च तु च स्तुः तस्य स्तोः समाहारद्वन्द्वः च चुः तेन चुना समाहारद्वन्द्वः च चुः समाहारद्वन्द्वः स्तोः षष्ट्यन्तं चुना तृतीयान्तं चुः प्रथमान्तं त्रिपदमिदं सूत्रं तयोरेव वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं स्तोः चुना चुः संहितायाम् अनुवृत्तिसूत्रमस्ति स्तोः चुनाचुः संहितायां संहितायां सकारस्य तकार तवर्गवर्णयोः स्थाने चकारः चवर्गः वर्णः अस्ति चेत् ननु सकारस्य तवर्गस्य स्थाने चकारः चवर्गस्य आदेशः भवति. यदा अनुदेश समानाम् इति परिभाषासूत्रेण
कदा आदेशः भवति सकारस्य तवर्गस्य
स्थाने चकारः चवर्गस्य आदेशः भवति
कदा
यदा सङ्ख्यम् अनुदेशः
चकारः चवर्गस्य योजने नाम तत्र सन्धिकार्ये तत्र सम्पर्कः भवति खलु सन्निहितः भवति नाम तत्र सकारः तवर्गः सकारः वा तवर्गः अस्ति चेत् तत्र शकारः अथवा चवर्गस्य सम्पर्केन
सन्धिभवति
आदेशः तेषां परिवर्तनं भवति सकारः चकारः रूपं धरति तवर्गीयव्यञ्जन व्यञ्जनानि
चवर्गीयव्यञ्जनानि
भवन्ति
क्रमेण
भवन्ति इति समीचीनम् अस्तु. हा अग्रे तत्र स च तुश्च इति तत् पठतु.
स च चुः तेन चुना इति भवति समाहारद्वन्द्वः चुः समाहारद्वन्द्वः स्तोः षष्ट्यन्तं भवति.
तस्मात् प्राक् भगिनि तत्र सम्बध्यन्ते इति अन्तिमपदमस्ति वाक्ये तदनन्तरं वाक्यं
सम्बध्यन् सा च तु च स्तुः तस्य स्तोः समाहारद्वन्द्वः सकारः तवर्गीयवर्णः तवर्गीयवर्णः
मिलित्वा स्तुः
मिलित्वा स्तुः इति भवति समाहार
स्तुः इति
षष्ट्यन्तमस्ति
किमर्थं षष्ट्यन्तमस्ति तत्र किं षष्ट्यन्तमस्ति
षष्टिस्थाने भवति
हा समीचीनं किन्तु किं पदं तत्र षष्ट्यन्तमस्ति स्तुः वा
तस्य स्तोः
हा स्तोः इति षष्ट्यन्तं समीचीनं स्तुः इति पदस्य षष्ट्यन्तं स्तोः अस्तु समीचीनं हा यतोहि
समाहारस्थाने
द्वन्द्वः नाम स्तुः इति समाहारद्वन्द्वः तत्र समाहारद्वन्द्वः नाम तत्र स्तुः इति अनेन तत्र वयं तत्र किं तत्र वचनं न दृश्यते तत्र यदि तत्र रामलक्ष्मणौ इति वदामः तत्रापि द्वन्द्वसमासः अनन्तरं तत्र रामलक्ष्मणौ इति तत्र द्विवचने अस्ति इति भवति किन्तु अत्र स च तु च इति अस्ति किन्तु स्तुः इति एकवचने अस्ति अतः समाहारद्वन्द्वः अग्रे
सा च चूच स्तुः तेन चुना इति तृतीया विभक्ति भवति
हा समीचीनं हा
समाहारद्वन्द्वः सा च चुः इति समाहारद्वन्द्वः स्तोः षष्ट्यन्तं चुना तृतीयान्तं चुः प्रथमान्तं त्रिपदमिदं सूत्रम् तयोर्वाचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् स्तोः चुना चुः संहितायाम् स्तोः स्थाने चुना चुः संहितायाम् स्तोः स्थाने चुः संहितायां चुना चकार च चकार
नाम
स्थाने
इति तत्र किम् आदेशः वा आगमः वा नामकरणं वा स्युः इति आदेशः स्युः इति आदेशः भवति कदा यत्र सम्पर्कः भवति तत्र स्तोः सम्पर्कः भवति स्तोः न स्तोः इति वर्गस्य स्तो तत्र स्तुः इति वर्ग इति वर्णः अस्ति चेत् तस्य परिवर्तनं भवति स्तुः इति रूपं स्वीकरोति कदा यत्र स्तुः अस्ति स्तुः इत्यस्य सम्पर्केन एतदपि स्तुः रूपं धरति चुना इत्यनेन अस्तु समीचीनं भगिनि धन्यवादः
कृपया कोऽपि लिङ्क् प्रेषयतु गीतासोपानसमूहे फलसन्देहे
ईमेल् मध्ये अस्ति भगिनि भवती ईमेल् न प्राप्तवती वा एकनिमिषं प्रेषयामि तत्र किं तत्र वाट्साप् मध्ये प्रेषयामि चेत् समीचीनं वा अथवा किम्
आम् आम् आम्
अस्तु भगिनि एकनिमिषः प्रेषयामि शुभ भगिनी अग्रे पठति वा
आम् महोदय भवत्योगः चक्षुः भवच्चक्षुः इति भवति अपि च यज् योगः नः यज् योगः तत्र चवर्गीय अनुनासिकव्यञ्जनः ञ इति योगः अह योगः यज्ञः इति भवति भवत्योगः चक्षुः इत्यस्मिन् उदाहरणे तकारचकारयोः योगः तत्र स्तोः सकारतकारयोः श्चुना इति योगे इत्युक्ते तत्र षकार अथवा चवर्गीयव्यञ्जनस्य योगे इति अस्ति. इदानीं तत्र स्तोः इत्यस्य तकारः अस्ति योगः, श्चुना इत्यस्य चकारः अस्ति. अतः तकारस्य स्थाने चकारादेशः भवति स्तोः श्चुनाश्चुः इति सूत्रेण. अपि च तत्र यथा सङ्ख्यम् अनुदेशः, यथा सङ्ख्यम् अनुदेशः समानाम् इति सूत्रेण तकारस्य स्थाने चकारादेशः, इत्युक्ते वर्गीयप्रथम वर्णौ द्वे अपि द्वौ अपि, अतः तकारस्य स्थाने चकारादेशः भवति. तदानीं भवच् योगः चक्षुः इति भवति, तस्य वर्णमेलनेन भवच्चक्षुः इति भवति. तत्र आस्ट्रिस्क् अस्ति, तस्य अन्वयः कुत्र? ओ अस्तु, अग्रे दत्तमस्ति. अपि च यज् योगः नः इति, तत्र यज् इति पुनः जकार नकारयोः योगः, जकारः चवर्गीयव्यञ्जनम्, अतः तत्र इदानीं तत्र श्चुना इति अस्ति किन्तु तृतीयाविभक्त्याम् अस्ति, अतः तत्र पूर्वं वा परं वा इति व्यत्यासः न भवति.
अतः तत्र इदानीं न अपेक्षितः,
हा
पूर्वकार्यं भवति अथवा परकार्यं भवति इति क्रमः न अपेक्षितः.
आम्, अतः तत्र तृतीया अस्ति श्चुना इति कृत्वा यज् जकारः जकारस्य योगे नकारः अस्ति, अतः तत्र इदानीं श्चुः भवेत्. तत्र जकारस्य स्थाने नकारः परवर्णः अनुनासिकवर्णः, अतः तत्र यथा सङ्ख्यमनुदेशः समानाम् इति सूत्रेण चवर्गीय अनुनासिकव्यञ्जनः व्यञ्जनं तत्र आदेशरूपेण आगच्छति. क्षम्यतां, तत्र नकारस्य स्थाने यज् योगः नकारस्य स्थाने इदानीं ञकारः आगच्छति. तदनन्तरम् अह इति तत्र नकारस्य नः इत्यस्य नकारः योगः अह इति कुर्मः चेत् सः अहः इति अह इति भवति तत्र. अतः यज् योगः ञकारः योगः अह, तत्र वर्णमेलनेन यज्ञः इति भवति. तत्र ज्ञ इति अक्षरे संयुक्ताक्षरं, तस्मिन् जकार चवर्गीय अनुनासिकवर्णः स्तः, अतः अतः यज्ञः इति रूपं भवति तत्र.
समीचीनं भगिनि. तर्हि तत्र प्रथमे उदाहरणे तत्र अपि
पूर्वं
वेदः कः इति एकवारं वदतु.
प्रथमे उदाहरणे तत्र तकार इत्युक्ते तत्र स्तोः श्चुना इति उक्तत्वा तत्र षकारः चकारः वा पूर्वं वा परम् एव भवेत् अथवा पूर्वम् एव भवेत् इति नियमः नास्ति तत्र. निमित्तं यत् पूर्वं वा भवेत् परं वा भवेत्, केवलं तत्र सकारतकारयोः योगे षकार च तकार न सकारतवर्गीयवर्णानां योगे षकारचवर्गीयवर्णानां वर्णाः भवन्ति चेत् तत्र सन्धिकार्यं भवति. एकत्र तवर्गीयव्यञ्जनं पूर्वम् अस्ति, अन्यत्र चवर्गीयव्यञ्जनं पूर्वम् अस्ति, अपि च तवर्गीयव्यञ्जनं परम् अस्ति. प्रथम उदाहरणे तवर्गीयव्यञ्जनं पूर्वं चवर्गीयव्यञ्जनं परम् अस्ति, किन्तु सूत्रस्य कार्यं तु भवति एव. निमित्तं यत्र कुत्रापि भवेत् निमित्तम्.
समीचीनं. तर्हि तत्र तृतीया
इत्युक्ते तत्र तृतीया इति उपरि दत्तमस्ति, तृतीया विभक्तिः संयोजनम् एव इति, इत्युक्ते संयोगः भवेत् तावदेव पूर्वं वा परं वा इति किमपि नास्ति
तस्य महत्वं नास्ति नाम तत्र
नास्ति
तकारः चकारस्य तत्र सम्पर्केन तत्र चकाररूपं धरति अपि नकारः जकारस्य सम्पर्केन ण्यकाररूपं धरति परिवर्तितः भवति परिवर्तनं स्वीकरोति हा इति अस्ति समीचीनं हा अपि तत्र समीचीनं भगिनि हा अपि तत्र तृतीया अस्ति इति कृत्वा पूर्वकार्यं वा परकार्यं वा इति किमपि नियमः नास्ति द्वयमपि चलति तत्र सकारः स्तुः इति तत्र किं तत्र धन्तव्य किमपि अस्ति खलु तत्र न किन्तु सकारः तकारः तत्र दन्तव्य दन्तव्य वर्णाः इति मन्ये अपि शकारः चकारः तालव्यवर्णाः इति मन्ये खलु
शकारः तालव्य अपि च शकारः अपि तालव्य एव तालव्य इति
दुःखविसर्जनीयानां कण्ठः इचु यशानां तालु
तत्र कुत्र अस्ति तत्र तालव्यः इति तत् समीचीनं वा भगिनि
आं महोदय सकारतकार दन्तव्य अपि च तालव्यशकारः तत्र शकारः अपि चकारः तालव्यवर्णाः वर्णे वर्णौ अपि च यथा भवती उक्तवती तत्र सूत्रमपि अस्ति
इचु यशानां तालु
ओ
अकुहविसर्जनीयानां कण्ठः इचु यशानां तालु
अस्तु तर्हि तत्र दन्तव्यवर्णः तत्र सकारः तकारः तयोः तत्र तालव्यवर्णपरिवर्तनं भवति रूपेण परिवर्तनं भवति इति
दन्तवर्णाः वर्णानां सकारः तकारः अथवा तवर्गीयव्यञ्जनान् सर्वाणि व्यञ्जनानि दन्त्यवर्णव्यञ्जनानि दन्त्यवर्णाः सन्ति
तेषां
सम्पर्के तालव्यवर्णेषु भवन्ति तत्र चवर्गीयवर्णाः सर्वे तालव्याः
तत्र तालव्यवर्णैः सह सम्पर्कं यदा भवति तदा तालव्यव्यञ्जनरूपमेव तेषां भवति नाम तत्र तकारः चकारस्य सम्पर्केन अथवा चवर्गीयसम्पर्केन अथवा शकारस्य सम्पर्केन तकारः चकारः रूपम् एव धरति इति खलु इति एव सन्धिः
आम् तत्र इत्युक्ते आम् महोदय सकारस्य स्थाने शकारादेशः भवति किन्तु तवर्गीयव्यञ्जनानां स्थाने चवर्गीयव्यञ्जनानाम् आदेशः अपि च तालव्य
सकारः शकारस्य सम्पर्केन वा चुः इति तस्य सम्पर्केन वा चकाररूपं धरति तकारः तकारः चकारे रूपेण परिवर्तितः भवति तथैव तत्र अन्ये वर्गीयव्यञ्जनाः व्यञ्जनानि अपि अस्तु तदेव तदेव अन्यत् किमपि नास्ति अस्तु अस्तु समीचीनम् अस्तु अग्रे तत्र उषा भगिनी अग्रे तत्र तत्र उदाहरणं प्रथमतया पठतु भगिनि तत्र अधोभागे दत्तमस्ति तत्र प्रश्नः इति
प्रश्योगः नः प्रश्नः इति भवति परिवर्तनं न दृश्यते परिवर्तनं न दृश्यते शकारः प्रश् इति शकारः तालव्यशकारः नकारः दन्त्यवर्णाः दन्त्यवर्णाः परिवर्तनं नास्ति अत्र न दृश्यते यतोहि शात् इति सूत्रेण शात् इति अपवादसूत्रम् अस्ति शकारात् स्तोः चुनाशुः इत्यस्य अनन्तरम् अस्ति शकारात् परस्य ठवर्गस्य श्चुत्वं न स्यात् इति वदति शकारात् परस्य च्युत्वं न भवति ठवर्गस्य च्युत्वं न भवति इति स्तोः चुनाशुः इत्यस्य निषेधकसूत्रम् तपवादसूत्रं निषेधकसूत्रम् शात् पञ्चमीयन्तम् एकपदमिदं सूत्रं स्तोः शुनाशुः इत्यस्मात् श्चुः इत्यस्य अनुवृत्तिः थोः शि इत्यस्मात् थोः इत्यस्य अनुवृत्तिः न पदान्तात् तोरणाम् इत्यस्मात् न इत्यस्य अनुवृत्तिः तयोर्यवा वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं शात् तोः चुः न संहितायां शात् इति शात् तोः शकारस्य शात् इति पञ्चमीयन्तम् अत्र शात् इति पञ्चमीयन्तम् अञ्जम् इत्यनेन शकारस्य परः तोः तोः इति तकारः तकारस्य स्थाने तोः वर्णाः तकारवर्गीयवर्णाः वर्णः
षष्टि
इति प्रातिपदिकम् अस्ति चेत् तोः इति
षष्ट्यन्तरूपं
षष्ट्यन्तम् आं महोदय शात् तोः श्चुः शकार चवर्गीयवर्णाः अस्ति चेत् तोः श्चुः न संहितायाम् इति अस्ति सो प्रश्नः प्रश्योगः नः इति अत्र प्रश्योगः नः इति शात् अस्ति शकारः परः शकारस्य परः नकारः अस्ति नकारः तवर्गीय व्यञ्जनम् अस्ति प्रश्योगः नः इति स्थिते श्चुः न संहितायाम् इति युक्तत्वात् अत्र श्चुः कार्यं न भवति नकारस्य परिवर्तनं नास्ति इति न संहितायाम् इति अस्ति इत्यनेन न कार्यं न भवति प्रश्योगः नः प्रश्नः एव भवति नकारस्य स्थाने यज्योगः नकारः अत्र यज्ञः इति वयं दृष्टवन्तः अत्र प्रश्योगः नः प्रश्नः एव प्रश्नः इति नास्ति
इति अस्ति समीचीनं अतः तत्र शात् इति तत्र अस्तु धन्यवादः भगिनि समीचीनं
अस्तु
इदानीं तत्र आम् तत्र निवेदिता भगिनी तत्र स्वशब्दैः किञ्चित् वदति वा तत्र प्रश्नः इति किमर्थं प्रश्योगः न प्रश्नः इति एव तिष्ठति इति
प्रश्नः मध्ये शकार प्रथम शकार अस्ति तदनन्तरं तवर्गस्य कोऽपि व्यञ्जनः अस्ति चेत् निषेधसूत्रम् अस्ति शात् खलु
श्चुत्वसन्धेः निषेधकं सूत्रं नाम श्चुत्वसन्धि अत्र कार्यं तस्य कार्यं मास्तु इति अस्तु
तत्र
शात् इति विभक्तिका शात् तत्र तस्मात् इति भवती तु जानाति
पञ्चमी विभक्ति
पञ्चमी 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 अस्ति चेत् तत्र किमस्ति प्रथम तत्र सन्धिकार्यमध्ये प्रथमवर्णः शकारः भवति खलु द्वितीयवर्णः शकारः न किन्तु प्रथमवर्णः नाम पूर्वकार्यं क्षम्यतां
पूर्वकार्यं
न न क्षम्यतां तत्र परकार्यं पञ्चमी इत्युक्ते परकार्यं नाम
पञ्चम्यन्तम् एकमिदं पदं
तत्र परकार्यं नाम तस्य
इत्यस्य अनुवृत्तिः परकार्यं भवेत् अतः
प्रथमतया शकारः भवति तदनन्तरं किं
शकारः तदनन्तरं नकारः अस्ति खलु
अत्र अत्र उदाहरणे नकारः अस्ति किन्तु तत्र शात् इति कदा तस्य निषेध तस्य कार्यं तत्र शात् इति सूत्रस्य कार्यं कदा भवति यदि प्रथमतया शकारः अस्ति तदनन्तरं
शकारः स्तवर्गस्य कोऽपि व्यञ्जनम् आगच्छति तदा
कदा इदानीं तत्र शकारः प्रथमतया अस्ति तदनन्तरं सकारः भवति चेत् इदानीं शात् कार्यं करोति वा न यतोहि केवलं तुः इति एव अतः एव तोः इति अस्ति खलु तुः स्थाने नाम शात् यदा
स्तवर्गस्य स्थाने केवलं
हा तोः स्चुः न संहितायां नाम तोः इति तुः स्थाने स्चुः न भवति संहितायां यदि शात् पूर्वं नाम प्रथमतया शात् अस्ति शकारः अस्ति चेत् अतः शकारः सकारः अस्ति चेत् तत्र स्तुत्वसन्धिकार्यं करोति
भवति भवति
किन्तु केवलं यदि अपि यदि नकारः प्रथमतया अस्ति तदनन्तरं शकारः अस्ति चेत् तदा किं स्तुत्वसन्धि भवति वा अथवा न भवति
नकार
अनन्तरं शकारः
नकार अनन्तरं शकारः
इति यदि यदि तादृशी स्थितिः भवति चेत्
पश्यन् अधिकं शृण्वन् खलु पश्यन् तत्र भवति कार्यं भवति खलु
तत्र कार्यं भवति यतोहि
पश्यन् शृण्वन् पश्यै शृण्वन् भवति खलु पश्यै शृण्वन्
इति भवति समीचीनं भगिनि हा यतोहि तत्र शात् इति कार्यं न करोति शात् इति तत्र पर तत्र परकार्यम् अस्ति अतः यदि केवलं शकारः आदौ नाम प्रथमपदस्य अन्तिमवर्णः शकारः अस्ति चेदेव अपि द्वितीयपदस्य प्रथमवर्णः तवर्गीय अस्ति चेदेव शात् कार्यं करोति खलु विपरीततया कार्यं न करोति विपरीततया श्चुत्वसन्धि तत्र भेदः नास्ति यदि तत्र श्चुः इति प्रथमम् अस्ति तदनन्तरं स्तुः अस्ति इति तत्र कोऽपि भेदः नास्ति किन्तु शात् मध्ये महत्त्वम् अस्ति प्रथमतया शकारः तदनन्तरं तु इति भवेत् तदा एव शात् कार्यं करोति खलु समीचीनं
विष्ण अपि कोऽपि आधारण अस्ति खलु विष्णः विश् अधिक् नः अस्ति खलु कोऽपि अन्य उदाहरणम् अस्ति
शकारः परः
शकारः न विश् विश् मध्ये शकारतालव्यमस्ति खलु विश् अधिक्
न सत्यं सत्यं भगिनि तदपि अस्ति तत्र एतदेव एतदेव
ओ विष्णु ओके नाट् मुदन्यशकारः
विष्णुः शकारः
गीताप्रवेशे दत्तमस्ति सत्यं भगिनि गीताप्रवेशे एतस्य अपि तत्र उदाहरणं दत्तमस्ति तत्र त्रिंशत्
शकारः तालव्यम् अस्ति खलु
सत्यं भगिनि तत्र त्रिंशत् समये
तस्य अनन्तरं नकारः आगच्छति तवर्गस्य अन्य व्यञ्जनं
हा तदापि विष्णः इति एव तिष्ठति तत्र परिवर्तनं न भवति सत्यं भगिनि
पृष्ठसङ्ख्या किं महोदय
त्रिंशत्
त्रिंशत् अस्तु
गीताप्रवेश त्रिंशत्
विश्वयोगः नः विष्णः
प्रश्नः
प्रश्नः ओके भगिनी अपि सम्यक् भगवद्गीता भगवद्गीता श्लोकं वदतु
चकार परकाभ्यां योगे तवर्गस्य च निषेधसूत्रमस्ति चित्वं न भवति चकारात् परस्य तवर्गस्य चित्वं न भवति
अत्र कस्मात् सूत्रात् एतद् न भवति इति तत्र निषेधकं सूत्रं किम् इति अत्र उक्तमस्ति शात् इति अस्तु समीचीनं भगिनि अस्तु धन्यवादः अस्तु अग्रे
भगिनी उक्तवती दट् श्लोकः महोदय दट् पश्यन् शृण्वन् स्पृशन् जिग्रन् नश्नन् साल् स्तोः शिराशु कार्य
शृण्वन् अश्नन्
पश्यन् शृण्वन् स्पृशन् जिग्रन् अश्नन् गच्छन् स्वपन् श्वसन्
पञ्चमे अध्याये अस्ति
पञ्चमे अध्याये एय्त् श्लोक अष्टमश्लोक नैन्त् श्लोक अपि प्रलपन् विसृजन् गृह्णन्
किन्तु परवर्णाः भिन्नाः सन्ति खलु
पश्यन् शृण्वन्
तत्र अस्ति
भगिनी उक्तवती या
स्पृशन् तत्र श्रुत्वसन्धि कार्यं करोति
स्पृशन् जिग्रन् अपि अस्ति स्पृशन् जिग्रन् स्पृशञ्ज् जिग्रन् अपि अस्ति स्पृशन् जिग्रन् अश्नन् गच्छन् डिफ्रेण्ट् सन्ति या नमो
किन्तु श्रुत्वसन्धि प्रसङ्गः तत्र अस्ति
पञ्चमध्याये सिखा रहे हैं इसलिए वो याद है
ओ अस्तु अस्तु भगिनि
स्वपन् श्वसन् अपि अस्ति
समीचीनम् अस्तु धन्यवादः भगिनि अस्तु इदानीं तत्र सुजाता भगिनी अग्रे तत्र ध्येयं यत् इति तत्र चार् इति आसीत् खलु तत्र भवच्चक्षुः भवच्चक्षुः इति तस्य किञ्चित् विवरणं तत्र दत्तमस्ति किञ्चित् पठतु भगिनि
ध्येयं यत् यत्र सन्धिचिन्तनं भवति सदा ज्ञातव्यं यत् प्रवर्तमानं सन्धिकार्यं पदान्ते अस्ति न वा अत्र भवत् योगः चक्षुः इति समासस्य प्रसङ्गः अनयोः पूर्वोत्तरपदयोः सन्धि करणीयः तर्हि प्रमुखप्रश्नः भवति यत् भवत् इति पूर्वपदस्य पदसंज्ञा भवति पदसंज्ञा अस्ति न वा समासस्य लौकिकविग्रहवाक्यं भवति यदा भवत् चक्षुः इत्यस्य कृते भवतः चक्षुः इति लौकिकविग्रहवाक्यम् अलौकिकविग्रहं शास्त्रीयविग्रहवाक्यम् अपि भवति यस्य द्वारा समासनिर्माणं सिध्यति यदा भवत् चक्षुः इत्यस्य भवत् नस् प्रत्ययः अस्ति चक्षुषु इति भवति अत्र प्रथमतया समासस्य प्रातिपदिकसंज्ञा भवति कृत् तद्धितसमासस्य इति सूत्रेण इत्यनेन सूत्रेण तदा सुप्रत्ययस्य लुक् लोपः भवति लुक् भवति सुपो धातुप्रातिपदिकयोः इत्यनेन भवत् न्यस् योगः चक्षुषु इत्यस्मिन् न्यस् सु इत्यनयोः लुक् भवत् योगः चक्षु सुप्तिगन्तं पदम् इत्यनेन यस्य अन्ते सुप्रत्ययः अस्ति तस्य पदसंज्ञा भवति अत्र च भवत् इत्यस्य अन्ते सुप् नास्ति तर्हि प्रश्नः उदेति यत् तस्य पदसंज्ञा अस्ति न वा उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणं इत्यनेन पदसंज्ञा अस्ति एव इतश्च इतञ्च पर्यवसितं यत् सन्धिचिन्तनावसरे समासे पूर्वपदस्य पदसंज्ञा भवति लुप्सति लुप्तपदम् लुप्सति लुप्तपदम् अधिकृत्य अङ्गकार्यं भवति किन्तु पदसंज्ञा इति नामकरणं न तु अङ्गकार्यम् अतः पूर्वपदस्य पदसंज्ञा निमित्तीकृत्य सन्धिकार्यम् इच्छधिकं प्रवर्तनीयम् एतदाधारेण
एतावत् किञ्चित् वदतु भगिनि
बहुत् कुच् अस्ति महोदय भवत् शब्दस्य
समासश्च इत्यनेन सूत्रेण इति तावत् पर्यन्तं किञ्चित् विवृणोतु
उत्तद्धितसमासस्य
तावत्पर्यन्तं प्रथम आरम्भतः पठित्वा किमस्ति इति वदतु ज्ञेयं यत् इति आरभ्य
प्रवर्तमानः सन्धिकार्यं पदान् सन्धिकार्यं पदान्ते अस्ति वा न इति ज्ञातव्यम्
यदि तत्र सन्धिचिन्तनं कुर्मः तदा सन्धिकार्यं साक्षात् भवति न वा भवति इति तस्य ज्ञानम् अवगमनं
ज्ञानं भवति
भवेत् नो चेत् तत्र सन्धिकार्यं यत्र निषेधितम् अस्ति अथवा यत्र विकल्पः अस्ति किन्तु वयं चिन्तयामः न करणीयम् इति अथवा तत्र यत्र न करणीयम् अत्र वयं कुर्मः तत् समीचीनं न भवति अतः कुत्र करणीयम् इति तस्य ज्ञानं
मनसि
अस्माकं मनसि भवेत्
यत्र भवत्योगः चक्षु इति समासस्य प्रसङ्गः अस्ति अनयोः पूर्वोत्तरपदयोः सन्धि करणीयः समासः अस्ति चेत् सन्धि करणीयं
कार्यं निमित्तम् अस्ति तत्र करणीयं करणीयः एव
सन्धिकरणीयः
विकल्पः विकल्पः नास्ति इति अस्ति समासस्य प्रसङ्गे
तर्हि प्रमुखप्रश्नः भवति यत् भवतीति भवतीति पूर्वपदस्य पदसंज्ञा अस्ति न वा
नाम भवत् योगः चक्षुः इति अस्ति समासस्य विषयः अस्ति अत्र वयं किं चिन्तयामः अत्र प्रश्नः उदेति नाम सन्धिकार्यं कुत्र भवति यदि एकं पदमस्ति अपि अन्यत् पदमस्ति तयोः मेलनेन नाम प्रथमपदस्य अन्तिमवर्णः द्वितीयपदस्य प्रथमवर्णः तयोः सम्पर्केण सन्धिकार्यं भवति तर्हि प्रथमं पदं भवेत् खलु तत्र प्रथमं पदं भवेत् द्वितीयमपि पदं भवेत् अतः प्रथम भवत् इति यत् अस्ति तद् किं पदसंज्ञा तस्य अस्ति न वा इति निर्णयं करणीयं खलु
समासस्य लौकिकविग्रहवाक्यं भवति यदा भवत् चक्षुः इच्छस्य कृते भवतः चक्षुः इति लौकिकविग्रहवाक्यं भवतः चक्षुः इति भवत् चक्षुः इति विग्रहवाक्यं भवति
यत्र समासः भवति तत्र विग्रहवाक्यं भवेत् नाम विग्रहवाक्यस्य आधारेण एव वयं कः समासः भवति इति निर्णेतुं शक्नुमः नाम तत्र अर्थः तत्र भेदः वर्तते खलु सन्धिः अपि समासः तयोः मध्ये कः भेदः सन्धिमध्ये केवलं तत्र सन्धिकार्यस्य समीचीनं केवलं ध्वनिः वर्णः व्यञ्जनम् एतस्य एव महत्त्वं अर्थमहत्वं नास्ति सन्धिकार्ये
समासे पदस्य पदयोः
पदस्य अर्थस्य महत्वम् अस्ति अर्थमहत्वं समाससमये ध्वनि ध्वनेः महत्वं सन्धिकार्ये अतः अर्थः कः इति तस्य विवरणं कथं भवति विग्रहवाक्यरूपेण भवति विग्रहवाक्यं दृष्ट्वा ओ अस्तु एतस्य अर्थः एषः अतः एव
भवतः चक्षुः
नाम ये समासः एषः समासः अत्र अस्ति इति ज्ञातुं शक्नुमः अतः अत्र भवतः चक्षुः इति अस्ति इति लौकिकविग्रहवाक्यम् अस्ति चेत् तत्र प्रथमपदं भवतः इति प्रथमपदम् इति भवति वा इति पदमस्ति खलु भवतः इति पदम् इति स्वीकर्तुं शक्नुमः खलु भवतः इति अतः लौकिकविग्रहवाक्यं दृष्ट्वा तत्र भवतः इति पदमेव किन्तु अलौकिकविग्रहवाक्यं किम् अस्ति
अलौकिकविग्रहवाक्यं भवत् चक्षुः अलौकिकविग्रहवाक्यं शास्त्रीयविग्रहवाक्यम् अपि भवति यस्य द्वारा समासनिर्माणं सिध्यति यदा भवत् चक्षुः इत्यस्य भवत् योगः न्यस्तु विभक्तिप्रत्यययोजनेन योजनं भवति तस्य लोपः भवति चक्षुयोगसु इति भवति अत्र प्रथमतया समासस्य प्रातिपदिकसंज्ञा भवति कृत्सद्दितसमासस्य इत्यनेन प्रथमः प्रातिपदिकसंज्ञा भवति कृत्सद्दितसमासस्य इत्यनेन
पर्यन्तं समीचीनं भगिनि अस्तु धन्यवादः अस्तु इदानीम् अग्रे न न समीचीनमस्ति समीचीनमस्ति भगिनि अस्तु इदानीम् अग्रे तत्र शोभा
आं महोदय तत्र अत्र प्रथमतया इति आरभ्य वा
प्रथमतया अस्तु अत्र प्रथमतया
हा अथवा तत्र यथा भवच्चक्षुः इत्यस्य भवत् नस् योगः चक्षुषु तत्र
अस्तु
ततः ततः वा महोदय
अस्तु ततः एव वदतु भगिनि
अस्तु यथा भवच्चक्षुः इत्यस्य भवत् इति प्रातिपदिकं तत्र नस् इति सुप्रत्ययः योगः चक्षु पुनः सु इति सुप्रत्ययः इति भवति अत्र प्रथमतया समासस्य प्रातिपदिकसंज्ञा भवति कृत् तद्धितसमासाश्च इति सूत्रेण तत्र भवति प्रातिपदिकसंज्ञा भवति तत्र भवत् अपि च चक्षु इत्यनयोः कृत् तद्धितसमासाश्च इत्यनेन प्रातिपदिकसंज्ञा भवति यदा तत्र प्रथमं भवत्योगः चक्षु इति आसीत् इदानीं तत्र चिन्तनीयं भवति द्वयोः द्वे अपि पदे स्तः वा इति तर्हि तत्र विग्रहवाक्यं किम् इति दृष्टवन्तः तत्र भवतः चक्षुः इति इदानीं दृष्टवन्तः कुत्र तत्र भवतः चक्षुः इति इदानीं तत्र ते तु पदानि सन्ति एव किन्तु यदा भवत् योगः चक्षु इति भवति तत्र नस् इति सु इति प्रत्ययौ आगतौ इति जानीमः अथवा इदानीं ज्ञातवन्तः तत्र प्रथमतया समासस्य प्रातिपदिकसंज्ञा भवति इत्युक्ते तत्र इदानीं भवत् अपि चक्षु इत्यनयोः प्रातिपदिकसंज्ञा अभवत् कृत्तद्धितसमासाश्च इत्यनेन तदनन्तरं सुप्रत्ययस्य लुक् इत्युक्ते लोपः भवति लुक् इति एकप्रकारः लोपः तयोः सुप् प्रत्यययोः लोपः भवति केन इत्युक्ते सुपो धातु प्रातिपदिकयोः इति सूत्रेण सुपो धातु प्रातिपदिकयोः इति तत्र सुपः इति अस्ति पूर्वम् इति मन्ये सुपः इति धातु प्रातिपदिकयोः इति द्विवचने अतः तत्र भवत् णस् योगः चक्षु सु इत्यत्र णस् इति यत् अपि च सु इति यौ प्रत्ययौ स्तः तयोः लुक् अभवत् लोपः अभवत् तथा इदानीं पुनः तत्र भवत्योगः चक्षु इति तिष्ठति तदनन्तरं तदनन्तरं सुप्तिङ्गं सुप्तिङ्गन्तं पदम् इत्यनेन यस्य अन्ते सुप्रत्ययः अस्ति तस्य पदसंज्ञा भवति इदानीं तत्र सुप्तिङ्गन्तम् इति सूत्रे सुप् अपि अस्ति तिङ् अपि अस्ति येषां पदानां अथवा यस् किं तत्र येषाम् अन्ते सुप्रत्ययः अस्ति अथवा तिङ्प्रत्ययः अस्ति ते पदम् इति नामकरणं प्राप्नुवन्ति अतः सुप्तिङ्गन्तं पदम् इत्यनेन यस्य अन्ते सुप्रत्ययः अत्र सुप्रत्ययस्य विषयः सुप्रत्ययः अस्ति तस्य पदसंज्ञा भवति अत्र च भवत् इत्यस्य अन्ते सुप् नास्ति तर्हि प्रश्नः उदेति यत् तस्य पदसंज्ञा अस्ति अस्ति न वा इति इदानीं दृष्टवन्तः तत्र लोपः अभवत् लुक् अभवत् सूत्रेण तर्हि इदानीं इदानीमपि पदसंज्ञा अस्ति वा तयोः विहितम् आसीत् किन्तु लोपः अभवत् सुप्रत्ययानाम् इदानीमपि अस्ति वा पदसंज्ञा इति उत्तरं किम् अस्ति इत्युक्ते क्षम्यतां महोदय प्रत्ययलोपे प्रत्ययलक्षणं इति एकं सूत्रम् अस्ति तेन सूत्रेण पदसंज्ञा अस्ति एव इत्युक्ते तत्र प्रत्ययलोपे सप्तमी तत्र प्रत्ययस्य इत्युक्ते विषयसप्तमी न तु निमित्तं यदा प्रत्ययलोपः भवति तदनन्तरमपि प्रत्ययस्य लक्षणं तिष्ठति इति वदति सूत्रम् अतः एतेन सूत्रेण पदसंज्ञा तिष्ठति तत्र प्रत्ययाः अपगच्छन्ति किन्तु तेषां लक्षणं तिष्ठति अतः पदसंज्ञा तिष्ठति यत् विहितम् आसीत् पूर्वम् इत्थञ्च पर्यवसितं यत् परि अवसितं यत् सन्धिचिन्तना अवसरे समासे पूर्वपदस्य पदसंज्ञा भवति अस्तु अस्मिन् वाक्ये दत्तं सन्धि कार्यस्य विषये तत्र समासे सन्धिकार्यस्य विषये पूर्वपदस्य पदसंज्ञा भवति इति अस्तु लुकि सति लुप्तपदम् अधिकृत्य अङ्गकार्यं न भवति लुकि इत्युक्ते तत्र सप्तमीविभक्त्यां लोपः इत्युक्ते लोपे सति लुप्तपदं यस्य पदस्य लोपः अभवत् तस्य लुप्त तत्पदम् अधिकृत्य अङ्गकार्यं न भवति इदानीं तत्र यत्र प्रत्ययस्य लोपः अभवत् तस्य अङ्गकार्यं न भवितुम् अर्हति किन्तु पदसंज्ञा इति नामकरणं न तु अङ्गकार्यम् अतः पूर्वपदस्य पदसंज्ञा निमित्तीकृत्य सन्धिकार्यम् इत्यादिकं प्रवर्तनीयम् तत्र यतो यद्यपि लोपः अभवत् तेन अङ्गकार्यं तु न भवति किन्तु पदसंज्ञा तिष्ठति अतः पदसंज्ञा इति नामकरणम् अङ्गकार्यं नास्ति अतः इदानीम् अस्माकं कृते तु विषयः तत्र पदसंज्ञा भवेत् इति अतः पदसंज्ञा तु तिष्ठति एव अतः पूर्वपदस्य पदसंज्ञा निमित्तीकृत्य सन्धिकारं कार्यं भवति अपि च इत्यादिकं भवति इति
अस्तु एतादारेण अतः एतद् आधारेण इति तत् पठित्वा समापयामः तर्हि
ओ अस्तु भवत्योगः चक्षु तत्र झलां झषोन्ते इति एकं सूत्रमस्ति तेन तत्र पदस्य अन्ते किं तत्र तकारस्य दकारः भवति इत्युक्ते तकारः झल् वर्णः झलां अन्ते भवेत् झल् वर्णः पदस्य अन्ते तत्र झष् प्रत्याहारस्थवर्णः आदेशरूपेण आगच्छति, तत्र पुनः तकारः अस्ति इति कृत्वा दकारः भवति, तकारस्य दकारः झष् वर्णः अस्तु, झष् वर्णः. तदनन्तरं स्तोहुश्चुनाश्चुः इत्यनेन भवज् चक्षु इति भवति. इदानीं दकारस्य स्थाने जकारादेशः. तदनन्तरं खरिचा इत्यनेन भवच् योगः चक्षु इति भवति. तत्र खरिचा इत्यनेन पुनः प्रथम वर्गीयप्रथमवर्णः आदेशरूपेण आगच्छति, भवच् इति भवति, चक्षुः चक्षु. वर्णमेलने भवच्चक्षु इति भवति, प्रथमविभक्तौ एकवचने भवच्चक्षुः इति भवति. एवमेव अग्रे यत्र कुत्रापि समासः अस्ति तत्र पूर्वपदस्य पदसंज्ञा मनसि निधाय सन्धिचिन्तनं करणीयम् इति विषयः अस्ति तत्र.
इति अस्तु, समीचीनम्. अस्तु, उत्तमं भगिनि. अस्तु,
तत्र
समीचीनं, धन्यवादः भगिनि. सुजाता भगिनी, तत्र अन्ते शान्तमन्त्रं वदति वा भगिनि, समापयामः तर्हि.
आम् महोदय. ॐ पूर्णमिदं पूर्णमदः पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः गुरुभ्यो नमः. धन्यवादः महोदय.